एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा सुशीला कार्की इत्यनया निर्वाचनस्य पूर्वकार्यस्य विषये ह्य सर्वपक्षीयं विमर्शनं विहितमस्ति। प्रधानमन्त्रिणा कार्की इत्यनया आगामिनः माघ मासस्य एकादशी दिवसीय आयोक्ष्यमाणस्य राष्ट्रियसभायाः निर्वाचनस्य फाल्गुन मासस्य एकविंशति दिवसीय आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्य पदानां निर्वाचनस्य च पूर्वकार्यस्य सन्दर्भे सुरक्षा व्यवस्थायाः विषये च विमृष्टमस्ति इति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। सर्वपक्षीयस्य विमर्शनस्य अनन्तरं संचारकर्मिभिः सह संचार सूचना प्रविधि मन्त्री जगदीश खरेलः सर्वकारस्य प्रमुख राजनीतिक दलानां निर्वाचन आयोगस्य सुरक्षा प्रमुखाणां च संयुक्तोपवेशन निर्वाचनस्य वातावरणं सुदृढं सम्भूतमस्ति इति असूचयत्। मन्त्री खरेलः सर्वकारस्य पक्षतः विशेषरूपेण सुरक्षा कार्ययोजनां रणनीतिं च निर्माय क्रियान्वयनस्य चरणीय स्थिति चर्चयन् सम्भावितानां सुरक्षा समाहयानां व्यवस्थापकीय विषयाणां च सन्दर्भे विमृष्टमस्ति इति प्रावोचत्। विमर्शने दलानां प्रतिनिधयः निर्वाचन आयोगः सुरक्षा निकायानां प्रमुखाश्च सहभागिनः आसन्। मधेश प्रदेशस्य मुख्यमन्त्रीपदे नेपाली कांग्रेस संसदीय दलस्य नेता कृष्ण प्रसाद यादव नियुक्तोऽस्ति। प्रदेश प्रमुख प्राध्यापक डाक्टर सुरेन्द्र लाभ कर्ण नेपालस्य संविधानस्य अष्टाषष्ट्युत्तरैकशततम धाराया द्वितीयोपधाराया अनुसारेण मधेश प्रदेशस्य मुख्यमन्त्रीपदे कांग्रेस संसदीय दलस्य नेतारं यादव इत्यमुं ह्य नियुक्तवान् अस्ति। एतत्पूर्व मधेश प्रदेशस्य मुख्यमन्त्रीपदे यादवस्य नियुक्तये सप्तभिः दलैः सप्तसप्तति प्रदेशसभा सदस्यानां समर्थनेन सहितं प्रदेश प्रमुखस्य समक्षं स्वोक्तं प्रस्तुतमासीत्। मुख्यमन्त्रिणः यादवस्य समर्थने नेपाली कांग्रेस दलं, जसपा नेपाल दलं, जनमत दलं, नेकपा माओवादी केन्द्रम, लोकतान्त्रिक समाजवादी दलं, नेकपा एकीकृत समाजवादी दलं, नागरिकोन्मुक्ति दलं च वर्तन्ते। सरोज कुमार यादवेन गत बुधवासरे मुख्यमन्त्री पदे विश्वासस्य मतप्राप्तेः अभावात् पदात् त्यागपत्रं प्रदत्तम् आसीत्। प्रधानमन्त्री सुशीला कार्की निगदति सामाजिक न्यायस्य कृते भेदभावमुक्त समाजस्य निर्माणाय च सर्वेषां नैरन्तर्येण प्रवर्तनम् आवश्यकम् वर्तते। हाम्रो पार्टी नेपाल नाम्नो दलस्य प्रतिनिधिभिः सह ह्य सिंह प्रासादे सम्भूतस्य मेलनस्य क्रमे प्रधानमन्त्री कार्की समाजे वित्तस्य शक्तेश्च प्रभावयुतैः जनैरेव निर्वाचने विजयप्राप्तेः अवस्थाया रोदनत्वेन देशव्यापी रूपेण जनजागरणम् आनेतुं परामृशत्। प्रधानमन्त्री कार्की सर्वकारेण प्राप्ताया कार्यदिश अभ्यन्तरे स्थित्वा दलितवर्गाणाम् उत्पीडित समुदायानां च अधिकतमस्य प्रतिनिधित्वस्य सम्पादनाय आत्मनोऽपि प्रयासोऽस्ति इति उदैरयत्। प्रधानमन्त्रिणा सुशीला कार्की इत्यनया सह नेपालस्य कृते जापान देशस्य राजदूतेन मायदा तोरु इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। सिंहप्रसादवर्तिने प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये नेपाल जापान देशयोः सम्बन्धस्य सप्ततितमस्य वार्षिकोत्सवस्य सन्दर्भे विविधेषु पक्षेषु विमर्शनाय राजदूतेन तोरु इत्यनेन प्रधानमन्त्रिणा कार्किणा सह मेलवार्ता विहिता अस्ति इति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। तदवसरे राजदूतः तोरु सर्वकारेण यथासमयम् एव निर्वाचनं सम्पादयितुं विहितस्य संकल्पस्य प्रशंसां विधाय सर्वकाराय आवश्यकं सहयोगं प्रदातुं जापान सर्वकारः तत्परोऽस्ति इति प्रावोचत्। तदवसरे प्रधानमन्त्री कार्की नेपालस्य विकासस्य विविधेषु क्षेत्रेषु विहितस्य सहयोगस्य कृते धन्यवादान् व्याहरन्ति, आगामिषु दिनेष्वपि नैरन्तर्येण सहयोगो भविष्यति इति विश्वासम् अभिव्यनत्। राप्रपा नाम्नः राष्ट्रिय प्रजातन्त्र दलस्य मधेश प्रदेशसभा सदस्यः कञ्चन विच्छा पदमुक्तः सम्भूतोऽस्ति। प्रदेशसभा सचिवालयेन ह्य सूचना प्रकाश्य विच्छा प्रदेशसभा सदस्यतः पदमुक्तोऽस्ति इति सूचितं वर्तते। दलस्य विधानस्य अनुसारेण मासषट्कं साधारण सदस्यतातः निष्कासनं कृत्वा प्रदेशसभा सदस्यतः प्रत्यावर्तनाय केन्द्रीय कार्य सम्पादन समित्या विहितस्य निर्णयस्य अनुसारेण निष्कासनस्य सूचनया सहितं दण्डनस्य पत्रस्य समितितः सचिवालयाय प्राप्तेः पश्चात् सचिवालयन बिच्छा प्रदेश सभा सदस्यत पदमुक्तो स्थिति विज्ञप्ति प्रकाश्य ज्ञापितम् वर्तते। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवा विधस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनश्च मध्ये मेलवार्ता सम्भूता अस्ति। ह्य सम्भूते मेलने अनयोर्मध्ये सामयिक राजनीतिक विषयेष् विमृष्टम् अस्तीति सभापतेः देउवा विधस्य सचिवालयेन ज्ञापितम् वर्तते। जेएनजीयूनां समूहस्य आन्दोलनस्य अनन्तरं प्रथमवारं देशस्य द्वयोः विपुलयोः दलयोः नेतृर्मध्ये मेलवार्ता सम्भूता अस्ति। निर्वाचन आयोगेन आगामिनः माघ मासस्य एकादश दिवसे आयोक्ष्यमाणे राष्ट्रियसभायाः निर्वाचने आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणे प्रतिनिधिसभायाः निर्वाचने च समानुपातिक समावेशी प्रतिनिधित्वं कृत्वा सुशासनं संस्थापयितुं राजनीतिक दलानि निर्दिष्टानि सन्ति। नेपालस्य संविधानस्य मौलिकाधिकार व्यवस्थां संस्मृत्य निर्वाचन प्रणाल्यां समानुपातिक समावेशी प्रतिनिधित्वं विधातुं आयोगेन राजनीतिक दल सम्बद्धादि नियमस्य अनुसारेण आयोगे पञ्जीभूतानि दलानि ह्यः निर्दिष्टानि सन्तीति आयोगस्य सहायक प्रवक्त्रा प्रकाश न्यूफाने इत्यनेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। स्वास्थ्य जनसंख्या मन्त्री डा सुधा गौतमः पश्चात्तन समये मानव स्वास्थ्यस्य संकटः वर्धमानोऽस्तीत्यतः एतस्य न्यूनीकरणाय मनः परामर्शनेन सहैव आध्यात्मिक पद्धतौ जनाः योजनीया इति धारणां व्यक्तवती अस्ति। ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री डा गौतमः मानव स्वास्थ्यस्य समस्यायाः कारणेन प्रतिवर्षं 70,000 जनैः मनस्वास्थ्यस्य समस्यायाः कारणेन प्रतिवर्षं 70,000 जनैः आत्महत्या विधीयमाना अस्ति इति तथ्याङ्कान् प्रस्तुत्य एतस्य न्यूनीकरणाय सर्वकारेण समुदायैः परिवारजनैश्च सह मिलित्वा अग्रेवर्धनस्य आवश्यकतां न्यस्चिनोत्। कृषि पशुपक्षी विकास मन्त्री मदन प्रसाद परियारः भाषते कृषियोग्य भूमेः संरक्षणस्य गुणस्तरस्य अभिवर्धनस्य च अपरिहार्यता वर्तते। द्वादश मृद्दिवसस्य अवसरे कृषि विभागेन ह्य आयोजिते कार्यक्रमे मन्त्री परियारः उत्पादकत्वम् उत्पादनञ्च वर्धयितुं मृत्तिकायाः संरक्षणं कृत्वा उर्वराशक्तेः प्रवर्धनम् आवश्यकमस्ति इति बलं प्रादात्। मन्त्री परियारः ग्रामीणक्षेत्रे असन्तुलित रासायनिक मलस्य विषाक्त मलस्य च प्रयोगं कृत्वा कृषिकर्मणः सम्पादनस्य नगरेषु अत्यधिक लचगज पदार्थानां प्रयोगस्य च कार्यम् औद्योगिक गारस्थावकरश्च समाहोयस्य रूपेण वर्तन्ते इति उदैरयत्। विधायन व्यवस्थापन समितेः उपवेशे सांसदैः राष्ट्रिय परिचयस्य कृते सांस्कृतिक मूल्यमान्यतानां संरक्षणाय च नेपाली चलचित्रेण योगदानं प्रदीयमानमस्तीति उक्तं वर्तते। समितेः ह्यस्तनोपवेशे सांसदाः चलचित्राणां माध्यमेन राष्ट्रिय गौरवं वर्धयितुं चलचित्रक्षेत्रस्य समस्यानां समाधानाय सर्वकारस्य चलचित्र विकास समितेश्च उभयोः संलग्नता आवश्यकी अस्तीति न्यश्चिनन्। गतविक्रमवर्षीयस्य चलचित्र विधेयकस्य विमर्शने सांसदः चलचित्रक्षेत्रे न्यून स्वायत्ततायाः कारणेन प्रतिकूलः प्रभावस्य सम्भावना भवति इति चर्चयन्तः अत्यधिक नियन्त्रणेन गुणस्तरे न्यूनतायाः सम्भावनायाः सत्वात् उत्तरदायित्वस्य सम्पादनाय स्पष्ट विधेय व्यवस्था कर्तव्येति बलं दत्तवन्तः आसन्। राजधान्यां सञ्चाल्यमानायाः एनपीएल इति नाम्न्याः नेपाल प्रीमियर लीग क्रिकेट प्रतियोगितायाः अन्तर्गतायां ह्यः सम्भूतायां क्रीडायां लुम्बिनी लायन्स समूहेन जनकपुर बोल्ट समूहः पराजितोऽस्ति। कीर्तिपुरवर्तिन्यां क्रिकेट क्रीडा रंगशालायां ह्यः क्रीडितायां क्रीडायां जनकपुर बोल्ट समूहेन प्रदत्तं 33 धावनांकानां लक्ष्यं लुम्बिनी लायन्स समूहेन षण्णां क्रीडकाणां क्षेत्रौ पञ्चसु कन्दुकेषु अवशिष्टेषु षट्सु लक्ष्यम् अधिगतम् आसीत्। प्रथमं क्रीडितेन जनकपुर बोल्ट समूहेन निर्धारितेषु 20 ओवराङ्केषु षण्णां क्रीडकाणां क्षेत्रौ 32 संख्याता धावनांका अर्जिता आसन्।